गणेशाय नमः। ॐ वाकर्ताविव सम्प्रक्तौ वाकर्तप्रतिपत्तये जगदः पितरं वन्दे पार्वतीपरमेश्वरौ। ॐ येनाक्षरसमाह्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी। नमस्कारः सर्वे।
धन्यवादः।
हा पापा जी प्रणाम। दीपशिका भगिनी स्वागतम्।
हा नमस्कार
सर्वेभ्यः। नमस्कारः पापा जी। नमस्कारः।
नमस्कारः भगिनी। नमस्कारः पापा जी।
पठित्वा यदा तदा किञ्चित् पठित्वा अग्रे सरामः। अस्तु स्क्रीन् शेरिङ्ग् मध्ये पश्यन्तु सर्वे। यदा तदा यदा तदा अस्तु अस्तु शैलजा भगिनी पठतु भगिनी।
आं भगिनि। यदा सूर्यः उदयति तदा पुष्पं विकसति।
समीचीनं वा?
आं भगिनि। मम Yes, I guess it's right, Magini.
Samyak, samyak. Agrimam patatu, Magini.
Yada. Yada, vrishtikalaha bhavati, tada mayuraha nrutyati. Samyak, Magini.
Uttamam. Agrimam?
Yada, पञ्चवादनं भवति तदा मम पुत्रः क्रीडति।
क्रीडति उत्तमम्। अग्रिमम्। अस्तु एकनिमिषः। श्रमितम्। अस्तु पठतु भगिनि।
यदा रात्रिः भवति तदा चन्द्रः यदा षड्वादनं भवति तदा बालिका उत्तिष्ठति।
अस्तु दीप्शिका भगिनी पठतु अग्रिमम्।
आं भगिनि। यदा रात्रिः भवति तदा चन्द्रः प्रकाशते।
समीचीनं वा?
जब रात्रि होती है तब चंद्रमा चमकता है। हाँ समीचीनम्।
प्रकाशते कीदृशपदम्?
प्रकाशते सप्तमी विभक्ति है क्या?
शैलजा भगिनी कीदृशपदम् प्रकाशते?
आत्मनेपदम् लट् रूपम्।
हाँ आत्मनेपदी लट् अपि च
लट् प्रथम पुरुष एकवचनं।
उत्तमम् इत्युक्ते क्रियापदम्। उत्तमं
क्रियापदम्।
उत्तमम्। अग्रिमं पठतु दीप्शिका भगिनी।
यदा सीतायाः जन्मदिन भवति तदा
भगिनी जन्मदिनं
जन्मदिनं भवति तदा सा अन्नदानं करोति। जब सीता का जन्मदिन होता है तब वह अन्नदान करती है।
किञ्चित्
सीताया
जन्मदिन मतलब द डे शी इज बोर्न और द डे एनिवर्सरी न किञ्चित्
बर्थ जन्मदिन मतलब जन बर्थ डे नॉट द डे शी इज बोर्न
एनिवर्सरी बर्थ इत्युक्ते किम् एनिवर्सरी
हाँ हाँ बर्थ एनिवर्सरी
बर्थ एनिवर्सरी उत्तम अग्रिम पठतु
यदा शंकराचार्यः अष्टवर्षीयः आसीत् तदा सः तस्य गृहात् निर्गतवान् निर्गतवान्
समीचीनं वा
समीचीनं शंकराचार्य आठ वर्ष के थे तब उन्होंने तस्य अब तब उन्होंने अपना घर छोड़ दिया
शंकराचार्य
हाँ इंग्लिश में गलत है वहाँ संस्कृत में सही है
संस्कृत में शंकर शंकर
शंकराचार्य
शंकर
है
शकार
शकार है
तालु
आम भगिनी शकार
तालु उत्तम वाक्यम तो समीचीनम् अस्ति उत्तमम् अस्तु अग्रिमं पठतु दीप्षिका भगिनी एकनिमिषम् ओ I still to learn how to do this अस्तु पठतु भगिनी
यदा मम
पठतु
यदा मम उदरम् अस्वस्थम् अस्ति तदा अहं किमपि खादामि
अस्तु
किमपि न अस्ति भगिनि
हा किमपि न खादामि हा
न तु नास्ति तत्र उत्तमं समीचीनं भगिनि
हा न अहं किमपि न खादामि
अवगतं भगिनि चिन्ता नास्ति चिन्ता अस्तु उदरम् एक्चुलि यदा अहं किमपि खादामि तदा मम उदरम् अस्वस्थं भवति तत्तु समीचीनम् यदा अहं किमपि खादामि तदा मम उदरम् अस्वस्थम् एव भवति तत्तु समीचीनम् अस्तु उदरम् इत्युक्ते किं भगिनि दीप्षिका भगिनि
उदरं मतलब अपना पेट जहां खाना हजम करते हैं अपन उदरम्
उत्तमम् अग्रिमं पठतु
यदा अहं हसामि तदा त्वं हससि
समीचीनं वा
हाँ समीचीनं जब मैं हसती हूँ तब तुम हसते हो
उत्तम
हससी हसामी
हसामी हसामी बिंदु पापा जी संस्कृत भाषायां हाँ नास्ति विकल्पेन अस्ति वा न जानामि विकल्पेन तु भवितुम् अर्हति हसति हसति हसित विकल्पेन अत्र तु नास्ति इत्युक्ते अनुस्वार नास्ति तत्र पापाजि
यदा अहं प्रश्नं पृच्छामि तदा त्वं वदसि जब मैं प्रश्न पूछती हूँ तब तुम बोलते हो
उत्तम उत्तम धन्यवाद भगिनी अस्तु
धन्यवाद
अन्य के सन्ति अत्र सुधा हा अस्तु सुधा पापाजी पठतु अग्रिमम् पापाजी पठतु एकनिमिष
छात्र उसको एक सवाल पूछता है छात्र उससे एक सवाल पूछता है हे नहीं साफ नहीं दिख रहा हो सकता है
एक निमिष पापा जी
छात्र
हाँ पढ़ो
छात्र तम एकम प्रश्न पृच्छति
समीचीनं वा
छात्र तम इसको उससे होना चाहिए ना इसको लिखा है यहाँ पे ना तम उसको
हाँ उससे बोलते हैं सुधा भगिनी हिंदी भाषायाम उससे
उससे ओके आई हम तो एक क्लियर नास्ती है
ना 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 भगिनी हिंदी भाषायाम अभी उसको बोलते हैं लोग बट इट इज असाधु अस्ति
उससे
पूछता है
ओके ओके
किन्तु भाषायां तु बहु बहु जनाः तु उसको वदन्ति एव किन्तु असाधु अस्ति अस्तु अत्र भगिनी सुधा भगिनी वदतु भगिनी पृच्छ कीदृशधातु
पृच्छति इति द्विकर्मकधातु अस्ति
द्विकर्मकधातु द्विकर्मकधातु धातु इत्युक्ते किम्
दो कर्मपदं स्वीकरोति
द्वे के
प्रश्नं कर्मपदमस्ति अपि तम् इति अपि कर्मपदमस्ति
एकम्
एकं विशेषणविशेषम् एकं प्रश्नं
एकं प्रश्नं उत्तमं तदेव सुन्दरं पापाजी अग्रिमं पठतु
बेटा पिता को बोलता है पुत्र पितरम वदति हिंदी में भी गलत है और बेटा पिता को नहीं बोलता है पिता से बोलता है
से बोलता है पिता से बोलता है उत्तमम अग्रिमम पढ़े तो पापा जी
लड़का उसको देखता है बालका भवतीं पश्यति इसको भवती नहीं हुआ इसको भवती नहीं भवती तो तुमको भवती तो तुमको कराएगा
हाँ भवतीं इत्युक्ते कीदृश पदम शिक्षिका भगिनी
भवतीं भवत उसको तो तम होता है ना
ना भवती अत्र प्रातिपदिकं दत्तं भवती कीदृश
अच्छा वो अच्छा भवती मतलब वो भवत भवत शब्द स्त्रीलिंग तो भवती द्वितीय विभक्ति एक वचन
इत्युक्ते
इत्युक्ते मतलब कोई स्त्री को देखता है
कोई स्त्री नो
लड़का
भवतीम इत्युक्ते किम आप
उसको
आप
हाँ
आप
आप हाँ आप बाप हाँ भवती माने आप हाँ
भवती
तो आपको देखता है बालक आपको देखता है
आप
है ना हाँ आपको देखता है
किंतु अत्र तु उसको उसको अपि समीचीनम किंतु आपको
हाँ
उस इत्युक्ते प्रथम विभक्ति रूपम किमर्थम दत्तम आप इन हिंदी बिकम्स मध्यम पुरुष किन्तु संस्कृतभाषायाम् आप् तु प्रथमपुरुष इति भेदः अस्ति तदेव इति तु समीचीनं लड़का उसको देखता है लड़का उस स्त्री को देखता है किन्तु संस्कृतभाषायाम् उस इत्युक्ते किं संस्कृतभाषायां वदतु ताम् पश्यति
ताम् पश्यति ताम्
पश्यति इत्युक्ते उसको देखता है किन्तु अत्र तु भवती तु प्रथमपुरुष अस्ति तदेव सुधा भगिनी उस् इति लिखितवती किन्तु उस् किञ्चित् असमीचीनं भगिनी तु सुधा भगिनी
आं भगिनी
किमर्थम् उस् इत्युक्ते आप् नास्ति तदेव अस्तु अस्तु पापाजी अग्रिमं पठतु
पेड़ को याद करती है सावृक्षं स्मरति की याद करती है
खुशी
हो जाएगा पेड़ की याद करती
है पेड़ की याद करती है
किमर्थं हिन्दीभाषायां याद् इति स्त्रीलिङ्गपदम् याद् स्मृति इकारान्त स्त्रीलिङ्गपदम् याद् अपि स्त्रीलिङ्गं पदम् इसिलिये की याद् उस्की याद् किसी की भी याद् आती है किसी को याद् नहीं आती किसी को मीन्स् जैसे मुझे भगवान की याद आती है किंतु हिंदी भाषायां बहवह जनाः के किं वदन्ति मुझको भगवान याद आते हैं इति अपि बहवह जनाः वदन्ति किंतु किंचित असाधु किमर्थं पापा तु संस्कृत हिंदी विद्वान अस्ति अस्तु उत्तमम् अग्रिमं पठतु पापाजी
न
पञ्चमबिन्दु
पञ्चमं पिता पुत्र अच्छे आदमी को
याद
पिता पुत्र अच्छे आदमी को याद कर रहे हैं अच्छे आदमी को याद कर रहे
हैं संस्कृतम पठतु
पिता पुत्र च सज्जनं स्मरतः की याद कर रहे हैं सज्जनं स्मरतः
तो अत्र पिता और पुत्र पिता और पुत्र अच्छे आदमी की याद कर रहे हैं अवगतम सुधा भगिनी
आम भगिनी
अत्र च अस्ति अत्र मध्ये और पिता और पुत्र अच्छे आदमी की याद किमर्थम याद स्त्रीलिंगम पदम सज्जनम स्मरतः
पिता
की आवाज बहुत हल्की आ रही दीपा एकदम हल्की है कैन बेली हियर
पिता पुत्र
हाँ
ठीक है हिंदी में
हाँ हिंदी में चलता है पिता पुत्र माने पिता और पुत्र
हाँ चलता
हाँ तो ये वाक्य सही है फिर अगर ये की हो जाएगा तो सही हो जाएगा पिता पुत्र अच्छी याद कर रहे हैं उत्तमं. सो सुधा भगिनी और आवश्यकं नास्ति, किन्तु वर्तमानकाले तु और अहम् अपि तु और इति वदामि.
ओके भगिनि,
स्मरतः तु उत्तमं. अग्रिमं पापाजि.
हम सभी अच्छे आदमियों. हम सभी अच्छे आदमियों होना चाहिए. आदमियों को याद कर रहे हैं. तो यानी लिखा वहां.
आदमियों
गलत है. वयं सर्वे सज्जनान् स्मरामः.
सज्जनान् कीदृशपदं दीक्षिका भगिनी? सज्जनान्
सज्जनान् सज्जनान् रामनान् रामवत् राम सज्जनान् रामान् द्वितीय विभक्ति एकवचन रामान्
एकवचन
एक नहीं बहुवचन रामान् हाँ राम राम रामौ रामा राम रामम रामौ रामान् बहुवचन.
उत्तमं. वयं सर्वे सज्जनान् स्मरामः. उत्तमं. अग्रिमं पठतु पापाजी.
हम दोनों किताब और पेंसिल देखते हैं. हम दोनों किताब और पेंसिल को देखते हैं.
The one place you need a co, you need you, all these co's, you put them here.
Sorry, Vagini.
Masti chinta. Haan, pata tu, Papa ji. Avam.
Avam, pustakam. अङ्कनीं च पश्याव.
समीचीनं वा?
आमां पुस्तकम् अङ्कनीं च पश्याव.
उत्तमं. समीचीनं. सुन्दरं. धन्यवादः भगिनी. धन्यवादः पापाजि. उत्तमं.
धन्यवादः भगिनी.
अस्तु, अग्रिमं शिखा भगिनी अपि कृतवती. ओ अस्तु, सम्भाषणमस्ति. अस्तु, सम्भाषणं पठतु शैलजा भगिनी.
आम भगिनि. अम्बा सम्भाषणम्. अम्बा वदति पुत्री.
अम्बा वदति इत्युक्ते
अम्बा वदति पुत्री. Cannot read clearly, Bhagini. Just can you please zoom in? Haan. Thank you. Amba vadati. Putri, yadi, yadi, vidyut agamishyati, tarihi, vidyut agamishyati, tarihi, deepaha, jvalishyati, पुत्री वदति. आम् हे अम्बा, अहं दीपम्.
एकनिमिष. पुत्री इति सुधा भगिनी वदतु भगिनि.
आम् भगिनि. आम् हे अम्ब, अहं दीपं ज्वलिष्यामि, तदनन्तरम् अहं कथां लिखिष्यामि.
अम्ब अम्ब वदति सम्यक्. तव लेखनीं मम मञ्चे असि।
आम् अम्ब, त्वं किमर्थं मम लेखनीं न जानामि भगिनि।
अगृह्णा इति वा दीक्षिका भगिनि?
आं भगिनि, अगृह्णः।
अगृह्णः आसीः।
अहं तव लेखनीं फलानां शाखानां च सूचीं लेखितार्थम् अगृह्यः आसम्। अगृह्णाः आसम्।
यदा त्वम् आपणं गमिष्यसि तदा अहं तव सह गमिष्यामि।
अम्बा वद, बहु सम्यक्।
अस्तु अस्तु अस्तु, पुनः एकवारं परिशीलयामः। अस्तु, शैलजा भगिनी पठतु। इति सम्यक् वा पुत्री? हा पठतु।
अम्बा वदति, पुत्री यदि विद्युत् आगमिष्यति तर्हि दीपः ज्वलिष्यति।
इत्युक्ते इत्युक्ते किम्?
विद्युत् आगमिष्यति तर्हि दीपः, वेन् पवर् कम्स् बेक् प्लीस् स्विच् आफ् द लाम्प्। इस् इट् वाट्? तर्हि दीपः ज्वलिष्यति यदि विद्युत् आगमिष्यति, वेन् द पवर् कम्स् बेक् तर्हि दीपः ज्वलिष्यति। हा, बट् स्टिल् द लैट् इस् on.
आगमिष्यति कीदृशपदम्?
आगमिष्यति भविष्यरूप, भविष्यत्कालरूपम्।
भविष्यत्काल, विद्युत्, विद्युत् आगमिष्यति, विद्युत् कीदृशपदं दीक्षिका भगिनि? विद्युत् कीदृशपदम्?
विद्युत् मतलब बिजली है ना?
विद्युत् कीदृशपदम्? तकारान्त स्त्रीलिङ्गपदम्। तकारान्त स्त्रीलिङ्गं पदम् अस्ति चेत् विभक्तिरूपं समीच साधु विभक्तिरूपं किं भगिनि?
विद्युत्
तकारान्त स्त्रीलिङ्ग चेत्
तकारान्त स्त्रीलिङ्ग।
एकवारं पश्यतु समीचीनं रूपं किम्। सुधा भगिनी वदतु। सरित् यथा सरित् सरित् अस्ति इति एव
शरत् अस्ति, शरत् अस्ति भगिनि।
पुटसङ्ख्या
शरत् शरत् अस्ति भगिनि, पुटसङ्ख्या षट्चत्वारिंशत्।
तदेव अहं पश्यामि, किन्तु टेबल् नम्बर् 57 तकारान्तस्त्रीलिङ्ग सरित् कस्य गृहे ध्वनिः अस्ति अस्ति पापाजी, अहं नोट् करोमि। अस्तु, सरित् तकारान्त पश्यति वा?
आं भगिनि, अस्ति अस्ति।
इत्युक्ते तकारान्त स्त्रीलिङ्ग सरित् शब्दः, पुंलिङ्ग मरुत् शब्दवत्। मरुत् कुत्र अस्ति पेज पुटसङ्ख्या वदतु? त्रयस्त्रिंशत्। उत्तमं। त्रयस्त्रिंशत् पुटे, तमे पुटे मरुत् अस्ति। प्रथमविभक्तिरूपं किं भगिनि दीक्षिका भगिनी?
मरुत्।
मरुत् एव,
मरुत्
एव। किन्तु अधुना भवती किं लिखित?
अस्तु, विद्युत्, त में हलन्त होना चाहिए।
विद्युत्।
विद्युत्।
अस्तु, यदि विद्युत् आगमिष्यति, अगर बिजली आएगी, तर्हि तदा दीपः ज्वलिष्यति इत्युक्ते?
जब बिजली आएगी तब दीप जलेगा।
तब बल्ब जलेगा, तब
बल्ब जलेगा।
उत्तमम्, उत्तमम्। पुत्री वदति,
when electricity comes then the bulb will light up। The bulb will light up।
सम्बोधन पुत्री दीर्घ नास्ति।
सम्बोधन पुत्री कुत्र अस्ति? धन्यवाद भगिनी। कथं वदामः? पुत्री नदी, हे नदी। उत्तमम्।
अच्छा, पुत्री। ओके ओके,
हे नदी। उत्तमं, धन्यवाद भगिनी। उत्तमं, पठतु अग्रिमं सुधा भगिनी। आम्।
आम्, हे अम्ब, अहं दीपं ज्वलिष्यामि, तदनन्तरम् अहं कथां लिखिष्यामि। आम्, हे अम्ब, अहं दीपं ज्वलिष्यामि, तदनन्तरम् अहं कथां लेखिष्यामि।
लेखिष्यामि, कथं जानीमः? लिख नास्ति, लेख अस्ति। गुणभूत्वा लेख भवति। भगिनी दीक्षिका भगिनी, कथं जानीमः? लिख वादी लिखति, 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 लेखति, लेखिष्यामि, लेखामि, लिखामि, लिखामि, लिख, लिख अपि अस्ति किन्तु, अस्तु, तु दादी अस्ति चेत् गो, लुट्, लुट् भगिनि पश्यतु, अवगतम्?
लेखिष्यामि, लुट् लकार, लेखिष्यामि। आम् भगिनि।
अहं दीपं ज्वलिष्यामि, तदनन्तरम् अहं कथां लेखिष्यामि। उत्तमम्। अग्रिमं पठतु सरिजा भगिनी।
सम्यक्। तव लेखनीं मम मञ्चे असि। मम मञ्चे असि।
असि कीदृशपदम्?
भूतकाल, भूतकालः पदमस्ति।
भूतकाल वा? कीदृशपदम् असि?
असि
कथं जानीमः? कोऽपि अन्य कोऽपि वदतु।
असि लट् लकार, मध्यम पुरुष, एकवचन। त्वं, त्वम् असि।
उत्तमं, त्वम् असि। असि, अस् धातुतः भुवि, अर्थः तु भुवि, टु बी, टु एक्सिस्ट्, अदादि, परस्मैपदी, अकर्मक, असि, अस्ति स्तः सन्ति, असि स्तः स, अस्मि स्वः स्मः। उत्तमम्। अधुना यदि असि क्रियापदम् अस्ति, कर्ता किं भगिनि?
त्वं।
त्वम् असि वा? मञ्चे असि। त्वं मञ्चे असि
वा? अच्छा, नै नै, हां नै, त्वं, त्वं, त्वं
असि नास्ति भगिनि।
हां, अच्छा तव है, तव, सॉरी, हाँ तव
तव न तव तव
तव हाँ तव
अत्र भगिनी दीपशिखा भगिनी वाक्ये कर्ता कर्तृपदं किं तव लेखनी मम मञ्चे कर्तृपदं किं
कर्तृपदं तो तव है ना
न न तव इत्युक्ते किं भगिनी
कर्तृपदं जो कर रहा है ना कर्तृपदं जो कर रहा है
तव इत्युक्ते
तव 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 इत्युक्ते तुम्हारी षष्ठी विभक्ति है तो वो तो नहीं है कर्तृपदं हाँ हाँ
कर्तृपदं किं वदतु भगिनी लेखनी
कर्तृपदं
लेखनीम् इति
अच्छा लेखनीम्
विषय कः इत्युक्ते वाक्ये मुख्य विषय कः
मुख्य विषय हाँ लेखनीम है हाँ पेंसिल हाँ
वाक्यम समीकरोतु भगिनी
तब फिर लेखनीम तो नहीं होगा ना नीम तो द्वितीय विभक्ति हो गई अच्छा तो फिर तो लेखनी
लेखनी तव लेखनी
तव लेख
मम
मञ्चे मञ्चे
अस्ति अच्छा अस्ति बालकः
अच्छा अच्छा अस्ति है बिस्तर पर है
एकं वचन तु एकमेव एक लेखनी
अच्छा अच्छा ओके ओके अस्ति हाँ अच्छा लेखनी अस्ति
अस्ति इत्युक्ते प्रत्येक वाक्यं तत्तेन तदेव अहं वारं वारं वदामि किं वदामि किमपि पदम् अस्ति चेत् फार्मूला अत्र लिखतु कर्तृपदं वा कर्मपदं वा पुरुष किं विभक्तिरूपं किं वचनं किं लिङ्गं किं सर्वम् अत्र लिखतु वारं वारम् अहं वदामि किमर्थं वदामि तदनन्तरम् अत्र भवती जानाति एव इति कर्तृपदम् अस्ति चेत् असि कुत्र कथम् आयाति इति तु असाधु अस्ति शुद्धं नास्ति
भाषणं
स्वीकृत्य भगिनी बहवः दोषाः सन्ति तत्र सभाषणे पुनः एकमेकं पदं स्वीकृत्य फार्मुला किं कर्तृपदं किं कर्मपदं किं क्रियापदं किं इति पुनः परिशीलयतु भगिनि पुनः तदनन्तरं पुनः प्रेषयतु अवगतं भगिनि
हा आं भगिनि हा
अस्तु बहवः दोषाः सन्ति तत्र
सेम् मिस्टेक् सब् जगे होयेगी
सेम् अपि च अन्य अपि बहवः भिन्नप्रकाराः अस्तु उत्तमम् अस्तु अग्रिमं शैलजा भगिनी अस्तु सुधा भगिनी पठतु
आं भगिनी यदा जनः सङ्गतः अस्ति तदा सदाचारः भवति
विराम नास्ति तत्र आवश्यकं भगिनि शैलजा भगिनी गतवर्गे
अहं
वदामि गतवर्गे अपि इति वदामि विराम तु आवश्यकं भगिनि अस्तु सुधा भगिनी सम्यक् वा अर्थः कः वदतु
यदा सज्जनः सङ्गतः इति अर्थः न जानामि भगिनि
सङ्गतः सङ्गतः अहम् अपि न जानामि
फ्रेण्ड्शिप् भगिनी सङ्गतः
I think it is gathering, sangat, sangat na, satsangat.
Na, bhagini, kartrapadam kim bhagini? Asti atra dattam, kartrapadam kim? Sanjanaha asti va? Sajjanaha asti va? Sangataha asti, kim?
Sangataha is indeclined avyay padam bhagini. Sajjanaha sangataha is visheshna vishesha bhava asti.
Sangataha iti va? Iti va?
1 minute, Bhagini, I'm checking. Actually, I did the rough work somewhere. I couldn't find it now.
Sangata iti visheshanam asti. Sangata, sangata, sangata. Apicha, agreement, alliance, pumlingam padam asti.
अतः एक फ्रेंडशिप अर्थः अपि अस्ति भगिनि अतः
कुत्र अस्ति फ्रेंडशिप अत्र संगतः सो संगतः अस्ति चेत् फ्रेंडशिप अस्ति चेत् मम प्रश्नः अत्र अस्ति 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 इति एकवचन क्रियापदम् अत्र सज्जनः अस्ति वा संगतः अस्ति वा इति मम प्रश्नः कर्तृपदं किं भगिनि
Sajjana Sangataha, I am describing the Sajjanaha with Sangataha.
Friendship Sajjana, va? It you pick him?
Sajjanam
Mitram. Sajjanam. Sajjanam. Vadatu Bina Bhagini?
That sentence, I think she meant, I think I'm assuming that jahan pe sajjanon ka sangat hota hai, wahan pe sadachar hota hai. Let's take something like that.
Construction to Bina asti. Sajjana.
Bhagini, sangataha, we can use, sangataha is masculine, pulling shabda asti. Sajjanaha is... indeclined bhagini
sajjana indeclined va kutra
ha
kutra asti sajjana indeclined
it says masculine and also in decline
kutra bhagini aham tu pashyami
in spoken sanskrit bhagini
atra astu pashyatu bhagini sajjana
ha
kutra asti avyaya padam nasti tatra
avyayam nasti sorry I meant visheshana padam
अस्तु विशेषणम् अस्ति चेत् सज्जनः सङ्गतः इति वदति वा
हा
अस्तु सङ्गतः अस्ति कीदृशसङ्गतः सज्जनः
सज्जनः सङ्गतः
इति वदति वा
आं भगिनि एक्चुलि ऐ डिड् आल् द रफ् वर्क् इन् सम् अदर् बुक् एण्ड्
अस्तु
इट्स् नाट्
कीदृशपदं
सङ्गतः पुल्लिङ्ग् शब्दः
पुनः पश्यतु अस्तु सङ्गत इत्युक्ते ग्रूप् वा
वेन् यु स्क्रोल् डौन्
ग्रूप् अस्ति चेत् तु समीचीनं ग्रूप् अस्ति वा अत्र
सङ्गत
फ्रेण्ड्शिप् तु न किञ्चित् अर्थ सज्जना फ्रेण्ड्शिप् इति आङ्ग्लभाषायां तु भवितुम् अर्हति किन्तु संस्कृतभाषायां कथं वदामः अन्य कोऽपि प्रयत्न करोतु इति वाक्य अर्थः स्वीकृत्य नूतनवाक्यं वदतु सुधा भगिनी प्रयत्नं करोतु यदा
सज्जनः यदा
यदा सज्जनानां मध्ये भवामि तदा अपि च यदा सज्जनानाम् अस्ति जनः कोऽपि जनः अस्ति तदा सदाचारः
भवति
वर्धते किमपि सदाचारः वर्धते बढ़ता है अच्छा अच्छा आचार बढ़ता है किन्तु यदा सज्जनः संगतः अस्ति इति किञ्चित् संगतः तु फ्रेंडशिप अस्ति सज्जनः संगतः इति किञ्चित् पापाजी सम्यक् वा
हिंदी में संगति बोलेंगे
हाँ हिंदी में तो संगति बोलेंगे किंतु सज्जनः संगतः अस्ति तदा सदाचारः भवति इति समीचीनं वाक्यं वा
नहीं नहीं
किमर्थम
नहीं
किंचित् भगिनी शैलजा भगिनी अत्र किंचित् क्लिष्ट जाता मम मनसि
आम भगिनि
सज्जनानां सज्जनों का संघः अस्ति यदा सज्जनानां मध्ये व्यक्तिः अस्ति इति तु सम्यक् किन्तु इति किञ्चित् मम मनसि किञ्चित् क्लिष्ट जाता भगिनि न जानामि अहं कथं समीकरोमि संगतः इति पदस्य उपयोगं कथं करणीयं संस्कृतभाषायाम् इति किञ्चित् क्लिष्ट जाता तत्र तद्विषये अस्तु अग्रिमं पठतु सुधा भगिनी
आं भगिनि यदा आशयः अस्ति तदा मार्गः अस्ति
पुनः विराम नास्ति तत्र आवश्यकमेव वदतु भगिनी
यस् भगिनी आई फॉरगॉट फॉर ऑल द सेंटेंसेस यस्
वदतु पुनः सुधा भगिनी
हां भगिनी
यदा
आशयः अस्ति तदा मार्गः अस्ति यदा आशयः अस्ति तदा मार्गः
तदा मार्गः दृश्यति अपि च पश्यति
भवति तदा मार्गः भवति
इट् इस् लैक् वेन् देर् इस् अ विल् देर् इस् अ वे इट्स् लैक् देट् भगिनि
अस्तु किन्तु अस्ति मार्गः तु सर्वदा अस्ति भगिनि मार्गाः सर्वदा सन्ति किन्तु यदि आशयः नास्ति तदा मार्गः न पश्यति इति तु समीचीनम् किन्तु यदा आशयः अस्ति तदा मार्गः पश्यति इति अपि समीचीनम् पश्यति दिखता है नहीं तो दिखता नहीं ना मार्ग है तो मार्ग ऑलवेज देयर इज अ मार्ग है ना अवगतं भगिनी
आम भगिनी
Bhagini, can you repeat that what you just said? Like how, what is the thing?
Yeah, the Aashayaha ityukte Aasha iti. Yada Aasha asti tada margaha pashyati. Ityukte kopi jana, kopi vyaktihi asti chet. Iti anubhavat, iti anubhavati kim? यदा आशा अस्ति तदा एव मार्गः पश्यति यदा आशा नास्ति तदा मार्गः न पश्यति मार्गाः तु सर्वदा सन्ति बहवः प्रकाराः मार्गाः सदा सन्ति वा न वा वदतु
okay, I understood that.
यदा घण्टा जाता तदा सुताः विद्यालयात् गृहं गच्छन्ति
समीचीनं वा?
समीचीनम् अस्ति भगिनि.
विद्यालयात् इति किञ्चित् समीचीनं भगिनि.
विद्यालयात् सुताः विद्यालयात्
या महाप्राणः नास्ति
भगिनि.
वि दकार यकार कथं लिखामः? दकार यकार विद्या महाप्राण नास्ति भगिनि तत्र. अवगतं भगिनि? न, शैलजा भगिनी अवगतं वा न वा?
वाट् भगिनि? नो भगिनि, ऐ डिड् नाट् अण्डर्स्टाण्ड्.
अस्तु, अत्र विद्या धकार महाप्राण अस्ति.
There should be no space between dhakara and yakara.
Na bhagini.
Is that what you are saying, bhagini?
Na bhagini. Atra tu dhakara mahaprana asti.
Vidya. Haan bhagini.
Vidya nasti. Padam kim bhagini? Padam kim? Kidrasha padam vidya nasti. Vidya. Dhakara.
No mahaprana. Mahaprana nasti bhagini.
Nasti. D-A.
Oh.
DH
nasti.
Okay. DH nasti. Vidya.
Oh, right.
Vidya. Katham likhamaha V. Dakara. Tadanantaram yakara. Tadanantaram A. Vidya.
But where is the da? Okay, da and yara are mixed together. So it seems like dakara.
Samyukpaksharah. Avagata?
Aam bhagini.
संयुक्ताक्षर यदा वयं बहवः किं गतवर्गे इति वयं परिशीलयामः इति परिशीलितवन्तः इति मन्ये भगिनि. यदा वयं के के वर्णाः सन्ति, कति कति प्रकाराः वर्णाः सन्ति इति वयं पठामः एव. सर्वे वयं पठितवन्तः. उत्तमम्. अस्तु, अग्रिमं पठतु सुधा भगिनि.
आं भगिनि. यदा सः बुभुक्षितः अस्ति तदा सः भोजनं खादति. समीचीनं भगिनि.
समीचीनं वा? उत्तमं. बुभुक्षितः अस्ति. बुभुक्षितः इत्युक्ते
काले के इच्छा.
खाने की इच्छा.
हंग्री. या
बुभुक्षितः अस्ति तदा सः. अस्तु, अग्रिमं पठतु.
यदा अहं गतसंवत्सरे भारतदेशे गतवती तदा अहं
भारतदेशं
गतवती तदा अहं काञ्चीपुरं काञ्चीपुरं
दृश्यामि इति वा?
दृश्यवा भगिनि?
आं भगिनि, दृश्यामि.
कीदृशपदं भगिनि? दृश्यामि. दृश्यामि इत्युक्ते
लैक् पश्यामि, पश्यति.
पश्यति तु समीचीनं.
दृश्रूपम् आम्
किमपि पदं नास्ति भगिनि. दृश्यामि किमपि पदं नास्ति. कथं जानीमः? पश्य एव अस्ति.
So I can use पश्यामि भगिनि there?
पश्यामि समीचीनं, किन्तु दृश्यामि तु समीचीनं नास्ति. दृश् धातुतः पश्यति. drishyami padam nasti.
So I mean, I just got, you know, like which word is right, pashyami va drishyami, because it is kanchipuram apashyami.
Bhagini, bhagini, drish dhatutah pashyami iti lat rupam ayati. Drishyami nasti asadhu shuddham nasti drishyami padam eva nasti kimapi.
Aam bhagini.
कथं जानीमः पुनः पुनः परिशीलय परिशीलयतु दृश् धातुतः कथं कथं जानीमः पदं किम् अष्टाध्यायी मध्ये पश्यतु एकवारं तदनन्तरं योजयतु अस्तु पश्यामि अस्ति चेत् पठतु सुधा भगिनि
आं भगिनि यदा अहं गतसंवत्सरे भारतदेशं गतवती तदा अहं काञ्चीपुरं पश्यामि स्म
समीचीनं वा
यदा अहं गतसंवत्सरे भारतदेशं गतवती तदा अहं काञ्चीपुरं पश्यामि स्म
एकनिमिष कथं जानीमः स्म वानवासर अत्र नास्ति किन्तु वयं तु पठितवन्तः स्म अस्तु अवगतं शैलजा भगिनि स्मा नास्ति स्म
आं भगिनि
पश्यामि स्म पश्यामि स्म इत्युक्ते किम्
पास्ट् टेन्स् भूतकालरूपं स्मा स्मा अस्ति चेत् वेन् ऐ वेण्ट् टु इण्डिया वेन् ऐ वेण्ट् टु इण्डिया ऐ सा काञ्चीपुरम्
अस्तु किन्तु स्मा नास्ति स्म
यस् भगिनि
अस्तु अग्रिमं पठतु
एकनिमिष ये अहं के साथ पास्ट टेन्स में आसम आता है ना
अस्तु किन्तु अत्र तु तव तु रूपं गतवती इति अपि गतवती दीर्घ अस्ति भगिनि स्त्रीलिङ्गरूपं तव तु रूपम् अस्ति भगिनि अत्र इत्युक्ते क्रियापदं नास्ति क्रिया इव कार्यं करोति तव तु रूपम् अस्ति यथा वयं पठितवन्तः एव एकम् अन्यरूपं वदतु शैलजा भगिनी तव तु रूपं पठितवान् पठितवती अपि च अपठत् अपठत् तु क्रियापदम् अस्ति लङ् लङ् रूपं भवति अत्र तु लङ् रूपं नास्ति क्रियापदं नास्ति इति क्रियापद पद पदम् इव कार्यं करोति किन्तु क्रियापदं नास्ति तव तु रूपम् अस्ति अहं गतवती दीर्घ अस्ति
तदनन्तरम् अहं पश्यामि स्म
अहं
पश्यामि आसम् नहीं होगा पश्यामि आसम्
कीदृशपदं स्म स्म एकम् अव्ययपदं स्म लट् रूप लट् लट् रूपम् अपि च स्म लट् रूप लट् क्रियापदस्य परं स्म अस्ति चेत् भूतकालार्थक भवति इत्युक्ते लिखति स्म इत्युक्ते अलिखत् पठति स्म इत्युक्ते अपठत् भूतकालार्थक भवति भूतकालार्थक भवति कथं जानीमः स्म यदि लट् रूपस्य परं स्म आयाति चेत् भूतकालार्थक भवति इति तु एकं शैली अस्ति संस्कृतभाषायां
आं भगिनि
अग्रिमं पठतु सुधा भगिनी
आं भगिनी यदा तस्याः माता पितरौ द्वयोः पश्यति तदा सा आनन्द भवति.
विसर्ग इट् इस् मिस्सिङ्ग् भगिनी, बिकास् वेन् ऐ वास् कापिङ्ग् इट् आनन्दः भवति.
आनन्दः भवति,
आनन्दः. अस्तु, सुधा भगिनी वदतु.
यदा तस्याः माता पितरौ द्वयोः
द्वयोः इति इति न लेखनीयं भगिनि. वकार अधोभागे आयाति, अत्र आयाति, अत्र नास्ति, अत्र आयाति भगिनि. शैलेजा भगिनी?
आं भगिनि, आम्. या ऐ ऐ रिमेम्बर् इट् भगिनि.
अधोभागे आयाति, अवगतम्?
आम् आम्. And that I forgot it because that's how I used to write Pagni, so sometimes I keep forgetting it. I remember it now.
Dhru abhi adho bhaage aayati, atra na aayati. Dhru adho bhaage aayati.
Okay.
Atra na asti, atra asti. अवगतम्?
आं भगिनि.
अस्तु, वदतु सुधा भगिनि.
यदा तस्याः मातापितरौ द्वयोः पश्यति तदा सा आनन्दं भवति.
अस्तु, अत्र पश्यति, शैलजा भगिनी वदतु. पश्यति अस्ति, कर्तृपदं किम्?
Actually, tasyaha is shashti vibhakti. Dakarantha strilinga tadshabdi vatta. Yes, Bhagini. Katrupadam is, I think this sentence is incorrect. Because there is no Katrupadam.
Katrupadam nasti api samichinam kintu bhavitum arhati kim, atra kim ayati, asti chet.
Then yada ayati.
Yada, nana. यदा तु कर्तृपदं नास्ति,
नास्ति.
अहं किं वदामि,
पश्यति अस्ति चेत् कर्तृपदम् आवश्यकम् इति
न इति न इति न वदामि. अहं किं वदामि, यदि इति अयं वाक्ये कर्तृपदम् अस्ति चेत्, अगर् होता तो, किं पदम् अस्ति इति मम प्रश्नः. किं पदं समीचीनम्?
सा भगिनि.
यदि
सा पश्यति, यदा सा तस्याः मातापितरौ द्वयोः पश्यति
इति. अधुना मातापितरौ कीदृशपदम्?
ऋकारान्तः पुल्लिङ्गः शब्दवत्. मातापितरौ it is
atra kidrisha vibhakti rupam kim
dvitiya vibhakti bagini it is dvitiya vibhakti dvivachanam
mata pitarau pumlingam padam mata cha pita cha pitarau जननी जनकौ पितरौ मातरौ पितरौ पुंलिङ्गं पदं माता पिता माता पितरौ औ औकारान्त समस्तपदमस्ति. मम मातापितरौ अध्यापकौ. अत्र दोषः अस्ति अध्यापकौ, अध्यापकौ नास्ति. यत् उत्तमं तत् एव भवतः मातापितरौ इच्छतः. अस्तु, अस्तु, मातापितरौ समस्तपदमस्ति. यदा सा तस्याः मातापितरौ द्वयोः कीदृशपदं भगिनि?
द्वयोः पुल्लिङ्गशब्दः पदं भगिनि, द्वितीयविभक्ति द्विवचनं.
द्वितीयविभक्ति
पितरौ अस्ति नो भगिनि, द्वयोः इस् अव्ययपदं फर् पुल्लिङ्गपदम्.
अव्ययपदं वा द्वयोः?
द्वयोः आं भगिनि, द्वयम् इस् फर् नपुंसकलिङ्गं. द्वयं
तु अन्यपदं, द्वयोः कीदृशपदम्? मम मातापितरौ द्वयोः केशाः पिङ्गलवर्णेन अञ्चिताः सन्ति. मम मातापितरौ द्वयोः केशाः, द्वयोः कीदृशपदं? सुधा भगिनी वदतु.
द्वयोः,
द्वि अस्ति चेत्
षष्टिः,
षष्टिः अपि सप्तमी अस्ति चेत् यथा रामयोः, द्वयोः षष्टिः अपि च सप्तमी. अत्र किम्?
अत्र मातापितरौ I used the, as a describing word for mata pitarau bhagini.
Astu, kintu dvayoho tu shashti api sami saptami. Mata pitarau tu dvitiya asti. Adhuna.
Haan, dvit karma padam.
Kintu shashti api cha mata pitarau dvitiya iti tu visheshana visheshana asti. Kidrisha bhava asti tatra madhye. Kidrisha bhava. मातापितरौ कथं वदनीयं वदतु सुधा भगिनी, समीकरोतु.
मातापितरौ द्वौ पश्यति.
द्वौ पश्यति, तदेव. मातापितरौ द्वौ, मातापितरौ द्वितीयविभक्ति, द्वौ अपि द्वितीयविभक्ति. पश्यति इत्युक्ते कर्मपदं विशेषणविशेष. पश्यति तदा सा आनन्दः. आनन्दः कीदृशपदं भगिनि?
पुल्लिङ्गशब्दः.
उत्तमम्. आनन्दः पुल्लिङ्गशब्दः, अपि च अत्र कीदृशविभक्तिरूपं?
प्रथमाविभक्ति.
सा भवति,
सा भवति,
सा भवति, आनन्दः भवति. अत्र भवति तु क्रियापदं, कर्तृपदं किम्? आनन्दः वा सा वा?
आनन्दः.
सा कीदृशपदं तदनन्तरम्? आनन्दः भवति, उत्तमं. सा कीदृशपदं? सा आनन्दः भवति इत्युक्ते
सो ताम् आनन्दं भवति वा? तदा ताम् आनन्दं भवति, आनन्दः भवति.
ताम् ताम् आनन्दः अनुभवति. सा एक्चुलि सा आनन्दः अनुभवति.
Bhagini, can there be two, like, Katrupadams in a sentence?
Na, Bhagini. सा आनन्दम् अनुभवति इति.
आनन्दं बिकम्स् कर्मपदम् एण्ड् सा इस् कर्तृपदं. सा भवति
आनन्दं.
किं भवति? आनन्दं भवति.
अनुभवति भवति नास्ति. आनन्दं न भवति, आनन्दम् अनुभवति. अनुभवति भवति अर्थः क भेदः क भगिनी? सुधा भगिनी वदतु. भवति इत्युक्ते बिकम्
happens also the bhagini
happens na anubhavati iti samichina matra bhagini
ha
bhavatyah krute tada sa anandam anubhavati samichinam tadeva avagatam
aam
astu dikshika bhagini patatu
aam bhagini sah माम पश्यति. सः माम पश्यति. वह आप अहम मेरे को देखता है, देख रहा है. पश्यति वह मेरे को देख रहा है.
समीचीनं वा?
सः माम माम देखता है. पश्यति हाँ देखता है. पश्यति वह हाँ समीचीनम.
किमर्थम सुधा भगिनी समीचीनम वा?
सह माम
माम हलंत एव मिसिंग अस्ति.
हाँ हलंत मिस. आम भगिनी माम
माम
भवती ताह वदति. आप आप उन 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 सब से बोलती हैं.
उन उन सब इत्युक्ते
मतलब वह सब से ना. सातेता
उन सब महिलाओं से.
उन सब महिलाओं से हाँ ओके हाँ उन सब महिलाओं से बोलती हैं. वदति जननी एताम एतद फलम ददति. जननी एताम जननी एताम यह इन सब इन इन सब महिलाओं एतद
एतद कुत्र आयाति भगिनी? एताम कीदृश पद वचनम किम?
एताम एताम एतद शब्द सर्वनाम. एताम एत सातेता एषा एषा एते
एता वचनं किं वदतु सरिजा भगिनी?
एताम
एताम कीदृश पदं?
आम भगिनी दकारान्त स्त्रीलिङ्गः एतत् शब्दवत् एताम द्वितीय विभक्ति एकवचनं भगिनी.
एकवचनं एताम एकवचनं
सातेता ताम तेता हा एकवचनं एताम.
जननी एताम जननी कर्तृपदं एताम कर्मपदं
एताम कर्मपदं एताम हा इससे जननी इससे
इससे ना भगिनी द्वितीय विभक्ति
हाँ इस तो एषः ना एषः से आया ना.
एताम विभक्ति
रूपम एषा एषा से आया
द्वितीय विभक्ति रूपम अर्थ
एक वचन एक वचन तो एषा 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 एते एता एताम एते एता.
एताम इत्युक्ते
यह एषा मतलब यह तो इसको
इसको
हाँ तो हिंदी में अपन इससे बोल देते हैं ना असल में इसलिए वो इससे निकला
इसको.
हाँ इसको है ना द्वितीय विभक्ति. हाँ जननी इसको, हाँ तो हिंदी में अपन इससे बोलेंगे ना, इससे कुछ, इसको कुछ, अच्छा ओके
नो 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 इससे एंड इसको भिन्न अर्थ तो भेदा अस्ति भगिनी
हिंदी अच्छा, हाँ
इसको
जननी इसको
इस महिला को
ए तद फलम ददति फल देती है एतद एतद यह तद एतद
यह
एतद यह
फलम फले फलानि तत्ते तानि एतद
तत्ते तानि
एतद
तत्
एतद
तो तद लिखा है ना वहां
आम भगिनी एतद इत्युक्ते
तत्ते तानि
वदतु किमर्थं दकार आयाति तत्र
भगिनि सॉरी
दकार कथम आयाति अत्र
दिस भगिनि
न तत् अस्ति तत्
एतद् इन् ए सेण्टेन्स् वि यूस् एतत्
अस्तु किन्तु कथं जानीमः तत् 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 अस्ति वा न तद् तद् वा तत् वा कथं जानीमः उदा भगिनी वदतु
एतद् प्रातिपदिकम् अस्ति एतत् इति प्रथमा द्वितीयविभक्तिरूपम् अस्ति
तत् त एव अस्ति भगिनि दकार कथम् आयाति अत्र अग्रिमवर्ण तु
व्यञ्जनम् अस्ति चेत् दकार वा
व्यञ्जनं तु अस्ति किन्तु कीदृशं व्यञ्जनं
ददति
इत्युक्ते मृदु व्यञ्जनं वा कर्कशव्यञ्जनं वा मृदु अस्ति चेत् दकार आयाति कर्कश अस्ति चेत् अकार एव तिष्ठति एतत् फलम् मृदु व्यञ्जनम् अस्ति चेत् मृदु दकार आयाति कर्कशव्यञ्जनं परम् अस्ति चेत् कर्कश तकार आयाति अवगतम् वयं तु सर्वं कृतवन्तः अवगतं वा न वा भगिनि
आं भगिनि
किं किं वदामि इति अग्रिमवर्णः कः कीदृशवर्णः मृदु व्यञ्जनम् अस्ति चेत् अपि अत्र तकार दकार भवति अत्र तु मृदु नास्ति ह तु मृदु नास्ति कर्कश अस्ति किमर्थं द्वितीयवर्गस्य प्रथम कर्कशवर् व्यञ्जनानि अवगतं
काम बनिसु
च छ ज झ ट ठ प फ इति सर्वे कर्कश वर्णाः सन्ति इति कर्कश अस्ति चेत् इति अपि तकार एव तिष्ठति
एतत् फलं ददति
एतत् फलं किन्तु अत्र किमपि अन्य अस्ति चेत् इत्युक्ते किं दानं दानम् अस्ति चेत् दकार आयाति किमर्थं दकार तु मृदु व्यञ्जनम् अस्ति दानं दा मृदु अस्ति मृदु अत्र मृदु अस्ति चेत् इति अपि मृदु भवति अवगतम्
आं भगिनि
अस्तु पठतु दीक्षिका भगिनी अति इति वाक्यं समीचीनं वा
समीचीनं नास्ति
किमर्थम्
वो ददाति के साथ तो चतुर्थी विभक्ति लगती है
उत्तमम् इत्युक्ते
तो एताम नहीं होगा न क्योंकि जो जिसको मिल रहा है वो चतुर्थी विभक्ति लेता है ना
उत्तमम्
तो एतस्यै होगा ना जननी एतस्यै जननी एतस्यै इसको एतत् फलम ददाति ददाति होगा ना कि ददति तो नहीं होता
ददति कीदृश रूपं भगिनी बहुवचनम्
अच्छा बहुवचनम् ओके ओके फलम देती है नहीं ददाति
भगिनी कर्तृपदं किम् जननी
जननी हाँ जननी देती है
जननी तो एकमेव
हाँ
तदनन्तरं ददाति जननी ददाति जनन्यः ददति
तो जननी ददाति हाँ तो जननी एतस्यै
आम भगिनी दीर्घ दीर्घ न
वदतु समीकृत्वा कर वदतु भगिनी
जननी जननी एताम् एतत् फलं ददाति
एतां तु असमीचीनं न भगिनी द्वितीयविभक्ति तु नास्ति
भगिनी समटैम्स् ऐ कम् अक्रोस् वेन् ददति इस् यूसिङ्ग् ऐ केम् अक्रोस् नाट् यूसिङ्ग् चतुर्थी भगिनी द बुक्लेट्स् आल्सो विच् युर् यु सेण्ट् मी लैक् बिफोर्
विच् वन्
ददति के साथ नाट् ओन्ली चतुर्थी आल्स् बट् समटैम्स् दे आर् यूसिङ्ग्
प्रेषयतु
आं भगिनि ऐ सेण्ड् इट् इन् वाट्साप् लेटर्
नौ भगिनि वदतु पुनः वदतु वाक्यं
जननी एताम् एतं नास्ति एतस्मै जननी
पठतु
जननी एतस्मै एतत् फलम् एतत्
एतस्मै कथम् आयाति
चतुर्थी सोरि भगिनि सोरि
वदतु सर्वाणि रूपाणि एकवारं वदतु चतुर्थी रूपाणि
आं भगिनि
वदतु चतुर्थी रूपाणि वदतु तस्यै ताभ्यां ताभ्यः वदतु एतस्यै एताभ्यां एताभ्यः
सा ते ताः तां ते ताः तया ताभ्यां ताभिः तस्यै ताभ्यां ताभ्यः तस्याः ताभ्यां ताभ्यः तस्याः तयोः तासां तस्यां तयोः तासु सो इट् इस् तस्यै सा जननी तस्यै एतत् फलम् एतस्यै फलम् जननी एतस्यै एतत् फलं ददाति
अस्तु अस्तु ईदृश सर्वाणि वाक्यानि पुनः परिशीलयतु भगिनी एकमेकं पदस्य स्वीकृत्य फार्मुला लिखतु वारं वारम् अहं वदामि कृपया फार्मुला अत्र लिखतु सर्वे कुर्वन्तु एव फार्मुला अस्ति चेत् किञ्चित् स्पष्टा जाता ऐ नो यु वाण्ट् टु बिकम् कालिदास् टुमारो
No, Bhagini, I do that homework in rough, but when I did it, like, you know.
You always give the formula. It is very short. Very short. You can write it in brief, no? Kriya, you can do Kri. Very simple. Phalam, which is the Vibhakti Lingam. Vibhakti Lingam. Vibhakti Lingam. Very simple. It is very, very brief and very short. The more you do this practice, the more you will not make it. Otherwise, what your brain is imagining is not what you are writing. Your brain is imagining the meaning and you are smiling at yourself because you are thinking, what a beautiful sentence. But that's not what you are writing. You are writing something different. Avagatam?
Amen.
Puna ekavaram samikarotu tadanantaram. प्रेषयतु भगिनि उत्तमम् उत्तमम् किन्तु पुनः पुनः दृष्ट्वा एव वयं सर्वे
किञ्चित् किञ्चित्
किञ्चित् किञ्चित् ज्ञातम्. समीचीनमेव गृहपाठान् समीचीनमेव गृहपाठाः समीचीनमेव उत्तमं प्रयत्न तु उत्तममेव. धन्यवादः सर्वेभ्यः, बहु बहु धन्यवादः. अस्तु, अधुना किं कुर्मः? कुत्र अस्ति? अस्तु, एकम् अहं प्रेषयामि वाट्साप् मध्ये.
एकवारं पश्यतु वाट्साप् मध्ये.
वाट्साप् मध्ये अहं किञ्चित् प्रेषयामि, एकवारं पश्यतु सर्वे.
आं भगिनि.
विशेषणविशेष्यभावः. इति एकं सम्भाषणमस्ति, किञ्चित् तदनन्तरं विवरणमस्ति अपि. एकवारं गृहपाठरूपेण उच्चैः वदतु, पठतु, उच्चैः पठतु, अपि च रिकार्ड् करोतु, ध्वनिमुद्रणं प्रेषयतु वाट्साप् मध्ये एव. सर्वं यदि समय अस्ति चेत् यथाशक्यं सम्पूर्ण अभ्यास एकवारं वदतु. अवगतम् इति गृहपाठम् इति अस्य सप्ताहे 22 इति एकं पाठमस्ति. उच्चैः पठतु, अपि च प्रेषयतु वाट्साप् मध्ये सम्पूर्णं. वारं वारं पठित्वा किञ्चित् मधुरवाणी आयाति. वारं वारं पठित्वा एकवारं सर्वे किञ्चित् आरम्भं करोतु. भगिनी सुधा भगिनी पठतु, अपि च दीक्षिका भगिनी पठतु. दीक्षिका भगिनी नास्ति, अस्ति वा? अस्तु, पठतु. पठतु एकवारं सम्भाषणं पठतु. नवीनः वदतु भगिनी.
आं भगिनि. मित्र पश्य, एषः मम नूतनः स्यूतः.
दीक्षिका भगिनी,
क्या पढ़ना है? हमको समझ नहीं आ रहा.
अस्तु, व्हाट्सएप मध्ये अहम एकम पाठम प्रेषयामि.
अच्छा, व्हाट्सएप में जाएं हम. ओके ओके.
अस्तु, शैलजा भगिनी पठतु. तपनः.
विच पेज भगिनी? सॉरी, आई एम आल्सो फाइंडिंग स्ट्रगलिंग टू फाइंड.
वाट्सएप मध्ये पश्यतु भगिनी.
वाट्सएप मध्ये अभ्यासः अद्य सूचितानां विशेषणानां.
न, अद्य एव अहं प्रेषयामि. एकं सम्पूर्णपाठः अस्ति.
सम्पूर्णपाठः अस्ति,
पाठक्रमः विशेषणविशेष्यभावः इति. पश्यतु एकवारं पुटसङ्ख्या. पुटसङ्ख्या वदतु सुधा भगिनी.
पुटसङ्ख्या एकनिमिषं भगिनि. दशाधिकशतं.
दशाधिकशतम्. उत्तमम्. दशाधिकशतम् अभ्यासदर्शिनी इति पुस्तके.
ये किताब होगी ना पापा?
एकं पुस्तकम् अस्ति
वहां पे.
तस्मिन् दशाधिकशतं पुटे एकवारं पश्यतु सर्वे. तदेव अहं प्रेषयामि. विशेषणविशेष्यभावः सर्वे. दीक्षिका भगिनी, अभ्यासदर्शिनी भवत्याः पार्श्वे तु अस्ति इति पुस्तकं.
हा हा आं भगिनि
दशाधिकशतं पश्यतु
हा न विशेषण विशेष्यभावः नवीनः
उत्तमं मम अहं किं वदामि गृहपाठरूपेण किं करोतु एकवारं वदतु सुधा भगिनी
आं भगिनि इति पाठम् उच्चैः पठित्वा किं वाट्साप् मध्ये ध्वनिमुद्रणं प्रेषयामः
आं भगिनि
सम्पूर्णपाठम् एकवारं पठतु अधुना पठतु भगिनि तपनः दीक्षिका भगिनि
तपनः हा स्यूतः उत्तमः अस्ति लेखनी अपि किं नूतना समीचीना लेखनी अहो युतकम् ऊरुकं चापि नूतनं बहु सुन्दरम् अस्ति
आगामिसप्ताहे मम पितुः षष्टितं जन्मदिनोत्सवाचरणं भविष्यति अतः सः एतानि सर्वाणि दापितवान् अग्रजायै नूतनां गतिम् अनुजाय नूतनां द्विचक्रिकां च दापितवान् सः
षष्ट्यब्दपूर्तिकार्यक्रमं महता वैभवेन आचरन्ति वा वैभवेन आचरन्ति वा भवन्तः आचरन्ति वा भवन्तः
अस्तु अहं किं वदामि वारं वारं पठित्वा अभ्यासं करोतु तदनन्तरं यदा सुन्दरं भवति तदा ध्वनिमुद्रणं प्रेषयतु
आं भगिनि
प्रथमवारं पठित्वा न प्रेषयतु कृपया एकवारं पुनः पुनः पठतु किञ्चित् तस्य कृते एकं सम्बन्धः भवति एव कीदृशपदं कथं वदामि उच्चारणं कथं सम्यक् भवेत् कीदृशपदम् इति सर्वम् एकवारं वारं वारं करोतु तदनन्तरं पठित्वा प्रेषयतु इति मम आग्रहः अवगतं सर्वे
आं भगिनि
सुन्दरमेव इति पाठं बहु सुन्दरमेव पठतु एकं सर्वे अपि च स्वस्य गृहपाठं किमपि यदि दोषान् सन्ति ते कृपया समीकरोतु दोषान् समीकरोतु अवगतम्
आं भगिनि
अस्तु अन्तिमं पाठ पापाजी वदतु कृपया न श्रूयते पापाजी
हा बोलि
पूर्णमादा पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
सर्वं अर्पणम् हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ अस्तु धन्यवादः सर्वेभ्यः. पापाजी प्रणाम, नमस्कारः.
धन्यवादः सर्वेभ्यः. धन्यवादः
सर्वे सर्वेभ्यः. नमो नमः.
नमस्कारः भगिनी.
नमस्कारः. नमस्कारः भगिनी.
किञ्चित् तिष्ठतु भगिनी.
आं भगिनि.
अस्तु सुधा भगिनी, क्षम्यतां, बहवः दिनाः जाताः.
न भगिनि, चिन्ता मास्तु.
किमपि न कृतवान् करोमि. अस्तु, अद्य किम् पञ्चवादने सायङ्काले समय अस्ति वा भवत्याः कृते अद्य?
आं भगिनि, टैम्
मम समय अस्तु 7 to 8:30 टु नैट्.
भवत्याः समय
सार्ध अष्टवादन सः भगिनि अद्य. किञ्चित् अभ्यासं कुर्मः. क्षम्यतां भगिनी, बहवः दिनानि.
न न भगिनी, न चिन्ता नास्ति. अहमपि अभ्यासं न कृतवती.
न जानामि. सङ्घ इति तु तेन एव सङ्घ आवश्यकम्.
आं भगिनि, आम्.
तस्य कृते किञ्चित् किञ्चित् क्लिष्टा क्लिष्टा भवति एव. भवति एव भवती अपि किञ्चित् किम् इनिशियेटिव् करोतु मम कृते.
भवती
अपि करोतु भगिनि.
आं भगिनि,
वि बोत् डैरेक्षन्स् विल् मेनेज् मोर्, बट् लास्ट् 2-3 weeks हव् बीन् little bit difficult.
Bagini, I can understand, you know, like with when we say this time we somehow manage to come. If we don't say that also, I don't know how we spend the time. It just goes.
It goes. And yeah. I still have lots of things to catch up on from my 2 weeks that I missed from my other classes. But still, if I make this a commitment, it will happen.
Yes, Bagini,
so, tonight, at least for tonight, let us start.
8:30 your time, yeah.
अस्तु भगिनि.
आं भगिनि, नमस्कार.
मध्ये अपि समीचीनं.
आं भगिनि, आम्.
अस्तु, नमस्कारः.
नमस्कारः भगिनि, धन्यवादः.